मतिरिह गुणसक्ता बंधकृत तेषु असक्तातु अमृतकृत उपरुन्धे भक्तियोगस्तु सक्तिम् महदनुगमलभ्या भक्तिरेव अत्र साध्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः प्रकृतिमहदहङ्काराश्च मात्राश्च भूतानि अपिहृदपि दशाक्षी पूरुषः पञ्चविंशः इति विदितविभागो मुच्यतेऽसौ प्रकृत्या कपिलतनुरिति त्वं देवहूत्यै न्यगादीः प्रकृतिगतगुणौघैः नाज्यते पूरुषोऽयं यदि तु सजति तस्यां तद्गुणाः तं भजेरन् मदनुभजनतत्त्वालोचनैः सापि अपेयात् कपिलतनुरिति त्वं देवहूत्यै न्यगादीः विमलमतिरुपात्तैः आसनाद्यैर्मदङ्गं गरुडसमधिरूढं दिव्यभूषायुधाङ्कं रुचितुलिततमालं शिलयेतानुवेलं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः मम गुणगणलीलाकर्णनैः कीर्तनाद्यैः मयि सुरसरिदोघप्रख्य चित्तानुवृत्तिः भवति परमभक्तिः सा हि मृत्योर्विजेत्री कपिलतनुरिति त्वं देवहूत्यै न्यगादीः अहह बहुलहिंसा सञ्चितार्थैः कुटुम्बं प्रतिदिनम् अनुपुष्णन् स्त्रीजितो बाललाली विशतिः गृहसक्तो यातनां मय्यभक्तः कपिलतनुरिति त्वं देवहूत्यै न्यगादीः युवतिजठरखिन्नो जातबोधोऽपि अकाण्डे प्रसवगलितबोधः पीडया उल्लङ्घ्य बाल्यं पुनरपिबत मुह्यत्येव तारुण्यकाले कपिलतनुरिति त्वं देवहूत्यै न्यगादीः पितृसुरगणयाजी धार्मिको यो गृहस्थः स च निपतति काले दक्षिणाद्धोपगामी मयि निहितम् अकामं कर्म तु उदक्पथार्थं कपिलतनुरिति त्वं देवहूत्यै न्यगादीः इति सुविदितवेद्यां देवहे देवहूतिं कृतनुतिमनुगृह्य त्वं गतो योगिसङ्घैः विमलमतिरथासौ भक्तियोगेन मुक्ता त्वमपि जनहितार्थं वर्तसे प्रागुदीच्यां परम किमु बहूक्त्या त्वत्पदाम्भोजभक्तिं सकलभयविनेत्रीं सर्वकामोपनेत्रीं वदसि खलु दृढं त्वं तद्विधूयामयान्मे गुरुपवनपुरेशा त्वयि उपाधत्स्वभक्तिम् ओं तत्सदिति श्रीमन्नारायणीये पञ्चदशं दशकं समाप्तं श्रीहरये नमः रमा रमण गोविंदा गोविंदा श्रीकृष्णार्पणमस्तु।